इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्र मोदी वैश्विक हिताय कृतक बुद्धिमत्तायाः विकासं कर्तुम् आग्रहं कृतवान्। नवदिल्ल्यां भारतमण्डपे अनेकेषां विश्वनेतृणाम् उपस्थितौ ऐषमः भारत एआई इम्पैक्ट शिखर सम्मेलनस्य उद्घाटनं कुर्वन् प्रधानमन्त्री मोदी उक्तवान् यत् एआई इत्यस्मिन् भारतम् अवसरान् भविष्यस्य प्रारूपं च पश्यति। सः कृतक बुद्धिमत्तायाः लोकतान्त्रिकीकरणे बलं दत्तवान् यदेतत् विशेषतः वैश्विक दक्षिणस्य कृते समावेशस्य सशक्तिकरणस्य च साधनं भवितुमर्हति। श्रीमोदी अवदत् यत् विश्वं तस्मिन् युगे प्रविशति यत्र मानवः बुद्धिमत्ता प्रणाली च मिलित्वा सहनिर्माणं सहकार्यं सहविकासं च कुरुतः। सः अवदत् यत् एआई इतीदं कार्यम् अभिनवम् अधिकं कार्यक्षमम् अधिकं प्रभावशालिनं च करिष्यति। प्रधानमन्त्रिणा प्रोक्तं यत् भारतं न केवलं नूतन प्रौद्योगिक्याः विकासं करोति अपितु तीव्रगत्या प्रौद्योगिक्याः स्वीकारमपि करोति।
ये समिट जिस भारत में हो रही है वो भारत 1/6 ऑफ ह्यूमैनिटी को रिप्रेजेंट करता है। भारत दुनिया की सबसे बड़ी युवा आबादी का देश है, सबसे बड़े टेक टैलेंट पूल का केंद्र है, सबसे बड़े टेक एनेबल्ड इकोसिस्टम का उदाहरण है। भारत नई टेक्नोलॉजी बनाता भी है और उसे अभूतपूर्व तेजी से अपनाता भी है। इस समिट का भारत में होना भारत के साथ ही पूरे ग्लोबल साउथ के लिए गर्व का विषय है।
प्रधानमन्त्री नरेन्द्र मोदी नवदिल्ल्यां इण्डिया एआई इम्पैक्ट इति भारत कृतक बुद्धिमत्ताक प्रभाव शिखर सम्मेलने व्यापारिक नेतृभिः सह गोलोत्पीठिका चर्चासभायाः अध्यक्षताम् अकरोत्। सामाजिक माध्यम सन्देशे श्रीमोदिना प्रोक्तं यत् अस्मिन् सम्मेलने एआई इत्यस्य प्रौद्योगिक्याः नवीनतायाः च जगतः विविध हितधारकाः एकत्र समागताः। उपराष्ट्रपतिः सीपी राधाकृष्णनवर्यः ह्यः नवदिल्ल्याम् ओपन एआई इत्यस्य प्रमुखेन जॉर्ज ओसबोर्न इत्यनेन ओपन एआई इत्यस्य मुख्य वैश्विक कार्याणाम् अधिकारिणा क्रिस लेहाने इत्यनेन अथ ओपन एआई इत्यस्य रणनीतिक वैश्विक कार्याणाम् भारत प्रमुखया प्रज्ञा मिश्रा इत्यनया सह मिलितवान्। अन्तर्जालीय माध्यम सन्देशे उपराष्ट्रपतिः अवदत् यत् अस्मिन् मेलनावसरे आर्टिफिशियल इण्टेलिजेन्स इत्यस्य उदयमान विकासानां तस्य अनुप्रयोगानां भारतस्य एआई परिदृश्यस्य द्रुतविस्तारस्य च विषये चर्चाः अभवन्। अद्य केन्द्रीय नागरिक उड्डयन मन्त्री राममोहन नायडुः, राज्यमन्त्री मुरलीधर मोहलः, सूचना प्रसारण राज्यमन्त्री डॉ एल मुरुगनः संयुक्तरूपेण कोयम्बटूर विमानस्थानके उडान यात्री कैफे इत्यस्य अथ अन्य सुविधानाम् उद्घाटनं करिष्यति। विमानस्थानकस्य निदेशकः मोहम्मद आरिफः ह्यः वार्ताहरसमूहान् अवदत् यत् विमानस्थानकात् प्रतिदिनम् 28 30 विमानसेवाः प्रचलन्ति, यत्र विमानयानसेवा सिंगापुर शारजा इत्यादि अन्यदेशानां कृतेऽपि वर्तन्ते। केन्द्रीय गृहमन्त्री अमितशाहः असमराज्यस्य काचरमण्डले वैब्रेंट विलेजस् इत्यस्य द्वितीय कार्यक्रमस्य शुभारम्भं करिष्यति। कार्यक्रमस्य उद्देश्यं सीमाग्रामेषु परिष्कारः स्थायीजीविकायाः अवसराणां निर्माणं विकसित भारतस्य दृष्ट्या सुरक्षित सीमासमुदायस्य पोषणञ्च वर्तते। वाणिज्य उद्योगमन्त्री पीयूष गोयलः उक्तवान् यत् भारतं वैश्विक खाद्य सुरक्षायाः सशक्त विश्वसनीय स्तम्भरूपेण विकसति। अन्तर्जालीय सन्देशे श्रीगोयलेन उक्तं यत् हरियाणा राज्येन कृषि संसाधित खाद्य उत्पाद निर्यात विकास प्राधिकरणस्य माध्यमेन मडगास्कर इत्यत्र 7,000 मैट्रिक टन मितं पोषणयुक्त तण्डुलानां निर्यातं कृतमस्ति। सः अवदत् यत् एषा उपलब्धिः भारतस्य पोषण क्षमतायाः प्रौद्योगिकी बलस्य च स्पष्ट साक्ष्यं वर्तते। अद्य श्रीलंका देशस्य पल्लेकेले अन्ताराष्ट्रिय क्रिकेट क्रीडांगणे 20-20 अन्ताराष्ट्रिय क्रिकेट क्रीडायां अन्तिमे समूह बी संघर्षे ऑस्ट्रेलिया देशः ओमान देशं सम्मुखीकरिष्यति इति वार्ताः।